सर्वेभ्यो नमः, स्वागतम्। गतवर्गे वयं धातुगणानां विषये पठितवन्तः। भ्वादिगणः, अदादिगणः, जुहोत्यादिगणः पठितवन्तः। अद्य किञ्चित् अग्रे गच्छामः, परन्तु प्रथमतया किञ्चित् अभ्यासं कृत्वा गच्छामः। अस्तु
भगिनी, सम्यक् न श्रूयते भगिनि।
इदानीं भगिनि?
भगिनि,
अस्तु, प्रथमतया इदानीं भवती एव गच्छतु। एकनिमिषम्। भन्दते राधा भगिनी, भवती वदतु।
Sorry, I was on mute and I was telling. Bandate, bandate, bandete, bandante, bandate, bandete, bandadve, bande, bandavahe, bandamahe.
Samichinam. Gana ha kaha?
अदारिगणः
बन्द् योगः अयोगः ते
It's not Adadi, Bhagini. I don't know what it is.
Uktavati. Band, yogaha, a, yogaha, te. Idani, vikarna pratyaha kim asti atra?
A.
Kasmin ganasya vikarna pratyaha asti a?
स्मृतवती भगिनि, ऐ थिङ्क् इट्स् अ फस्ट् वन्, ऐ डोण्ट् रिमेम्बर् द नेम्.
भुवादिगणः. अस्तु, एकवारं वदन्तु, भुवादिगणस्य विकर्णप्रत्ययः किं?
भुवादि गणस्य विक्र प्रत्यय अस्ति.
अदादिगणस्य
अदादिगणस्य विकरणप्रत्ययः नास्ति.
जुहोत्यादिगणस्य
विक्रणप्रत्ययः नास्ति, किन्तु द्वित्वं तस्य चिह्नम् अस्ति.
समीचीनम्. अस्तु, इदानीं प्रिया भगिनी.
जागर्ति भुवादिगणः भगिनि, किं भगिनि?
भुवादिगणः न.
ओके, जानो किञ्चित् अ इत् अ एत ओसो इट् डजन् हाव् अ विकर्णप्रत्ययः नास्ति भगिनि. सो अदादिगणः.
आम्, अदादिगणः. द्वित्वम् अस्ति चेत् जुहोत्यादिगणः.
जुहोत्यादिगणः.
अस्तु, अनन्तरं राधा भगिनी ददाति.
ददाति, दत् प्लस् आ प्लस् ति. भवादिगणः भगिनी
न भगिनि ददाति अत्र द्वित्वम् अस्ति एकवारं वयं रूपाणि एकवारं पठामः तदनन्तरं वयम् अभ्यासं कुर्मः अस्तु भवादिगणस्य भवति इति प्रथमः रूपं रूपाणि वदन्तु
भवति भवन्ति I don't know why you're bugging me. I'm feeling very confused today.
अस्तु एकनिमिषं भवति भवतः भवन्ति भवसि भवतः
भवतः भवतः भवामि भवाव भवाम
भवामः अस्तु एकवारं भवति वदतु अदृष्टम्
Should I say it again? Bhavati, bhavataha, bhavanti, bhavasi, bhavataha, bhavata, bhavami, bhavava, bhavama.
Astu. Idani Priya Bhagini kridati ityasya vadatu.
Rupam vadami Bhagini.
Bhavati ityasya.
क्रीडति क्रीडकः क्रीडन्ति क्रीडति क्रीडकः क्रीडतः क्रीडामि क्रीडावः क्रीडामः
समीचीनं राधा भगिनी वदति
वदति वदतः वदन्ति वदसि वदतः वदत वदामि वदाव वदाम
समीचीनं जीवति प्रिया भगिनी
जीवति जीवतः जीवतः जीवन्ति जीवसि जीवतः जीवतः जीवामि जीवामः जीवा जीवामि जीवावः जीवामः
समीचीनम् अस्तु अनन्तरं गर्जति राधा भगिनी
गर्जति गर्जति गर्जतः गर्जन्ति गर्जसि गर्जतः गर्जत गर्जामि गर्जावः गर्जामः
सो भगिनी दि द फार्म् इस् नाट् रिलेटेड् टु दि गणः इस् दट् रैट् भगिनी ऐ थिङ्क् ऐ वास् कन्फ्यूस्ड् बै दट् सो गर्जति इस् अदादिगणः
गर्जति इस् भुआदिगणः
गर्ज प्लस् अ सच भुआदिगणः
सो व्हाट वाज द लास्ट वर्ड आई डिड भगिनी बिफोर वी स्टार्टेड द प्रैक्टिस
आई थिंक यू डिड एन अदा यू डिड जागृति
आ जागृति ओके 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 आई वाज कंफ्यूज्ड ओके ओके सो the form six forms the nine forms are also related to the ganaha then right
yes
okay so I'm little confused about it
asto idanim sochati iti what to do
I think I have to do again
asto
sochati sochatah sochanti शोचसि शोचतः शोचतः शोचामि शोचावः शोचामः
समीचीनम् आत्मनेपदी राधा भगिनी एधते
एतत्र आल्रेडि ऐ डिड् भगिनि ऐ स्टार्टेड् इत् एतत्र
सारि सारि ओके स्पर्धते
स्पर्धते स्पर्धते स्पर्धेते स्पर्धन्ते स्पर्धसे स्पर्धेते स्पर्धद्वे स्पर्धे स्पर्धावहे स्पर्धामहे
समीचीनं प्रिया भगिनी गाधते
गादते गादेथे गादन्ते गादस्ये गादेथे गादध्वे गादे गादावहे गादामहे
समीचीनं बाधते राधा भगिनी
बाधते बाधेते बाधन्ते बाधसे बाधेथे बाधद्वे बाधे बाधावहे बाधामहे
अस्तु नाधते प्रिया भगिनी
नादथे नादेथे नादन्ते नादसे नादेथे नादद्वे नादे नादावहे नादामहे
समीचीनं वन्दते प्रिया भगिनी
वन्दते वन्देते वन्दन्ते वन्दसे वन्दसे वन्दते वन्दद्वे वन्दे वन्दावहे वन्दामहे
राधा भगिनी बन्धते बन्धते
बन्धते बन्धेते बन्धन्ते बन्धसे बन्धेते बन्धद्वे बन्धे बन्दावहे बन्दामहे
समीचीनं मन्दते प्रिया भगिनी
मन्दते मन्देते मन्दन्ते मन्दसे मन्देथे मन्दध्वे मन्दे मन्दावहे मन्दामहे
समीचीनम् अस्तु इदानीम् अदादिगणः अस्तु अदादिगणस्य प्रथमः धातुः प्रथमः क्रियापदम् अस्ति अत्ति अस्तु
very confused by this Agni. I try to look at the document, try to see how to memorize these forms, but I am a little confused, like how to memorize them. Is there a pattern like the other one? So
for some of them, yes Agni, for like see for snati Srati, Drati, Pati, all this follow the same thing. But these don't as much.
Okay. Yeah, I wasn't sure how to memorize these.
You just have to repeat them and say them, Bhagini, that's it.
Okay. Okay, so Atti, I'll look and say, Bhagini.
Yeah.
Atti, Attaha, Adanti. Atti, Attaha, Attha. Admi, Advaha, Admaha.
Samichinam. Astu. Radha Bhagini, Asti.
Asti. Asti, Staha, Santi. Asi. स्तः स्त अस्मि स्वः स्मः
प्रिया भगिनी हन्ति
हन्ति हन्तः हन्ति हतः
घ्नन्ति
घ्नन्ति घ्नन्ति हंसि हतः हतः हन्मि हन्वः हन्मः
समीचीनं वक्ति राधा भगिनी
वक्ति वक्तः वचन्ति वक्षि वक्तः वक्त वच्मि vachvah vachmah. This is totally different, Bhagini, this bhakti.
Aam Bhagini. Astu aaste. Priya Bhagini.
Aaste, aasadhe, aasate. Aaste, aasadhe, aadve. Aase, aasvahe, aasmahe. I don't know how we're going to memorize something.
You have, it's only 9 farms. It's better than Vibhakti. Right? You have 8, right? So then you'll have more.
I was just getting happy that I was able to memorize that. Karasmaipadi and Atmaipadi, and then there's so many in that now.
Yeah. But we'll practice in class, so that it'll be.
Yeah. Okay, yeah.
Especially since we're going to spend a lot of time in Dhatu Ganaha, we'll revise them every week so that we're not just moving on without revising. Okay? Okay. Okay. Who has to read?
Shete, Shayate, Sherate,
Shayate.
शेते शयाते शेरते शेषे शयाथे शेद्वे शये शेवहे शेमहे
समीचीनम् अस्तु प्रिया भगिनी स्नाति
स्नाति स्नातः स्नान्ति स्नासि स्नाथः स्नात स्नामि स्नावः स्नामः
दिस् लुक्स् फेमिलियर्
लैक् परस्मैपदीनां भगिनि
दिस् इस् परस्मै
द्वादिगण पेटर्न् इन् द्वादिगण
Right. Bhagni, you were saying this is Adhiganaha or Kadamari, Bhagni?
This is Adhiganaha.
Adhadi, right? Ah, okay, okay. Yeah, but the pattern, like Radha Bhagni said, is similar to Bhagni.
Asushrati iti kurvantu, same form as Snati.
Who has to do Bhagni?
Who has to do Bhagni?
Radha Bhagni Pati Karatu.
श्राति श्रातः श्रान्ति श्रासि श्रातः श्रात श्रामि श्रावः श्रामः
अस्तु द्राति प्रिया भगिनी
द्राति द्रातः द्रान्ति द्रासि द्राथः द्राथ द्रामि द्रावः द्रामः
अस्तु पाति राधा भगिनी
पाति पा प्लस् ति पाति पातः पान्ति पासि पातः पात पामि पावः पामः
समीचीनं राति प्रिया भगिनी
राति रातः रान्ति राति राथः राथ रामि रावः रामः
लाति लाति लातः लान्ति लासि लातः लात Lami, Lavaha, Lamaha.
Samichana. Astha. Roditi. एकनिमिषम् रोद् इति स्वीकुर्वन्तु
रोदिति रोदितः रोदन्ति रोदिषि रोदितः रोद रोदितः रोदिनी रोदि
रुदितः
ओ सारि भगिनि ओके रोदिषि रुदितः रुदितः रोदिनी हृदि वः हृदिमः
स्वपिति स्वपिति स्वपितः स्वपन्ति स्वपिषि स्वपितः स्वपित स्वपिमि स्वपिवः स्वपिमः
समीचीनम् अनीति प्रिया भगिनि
अनिति अनितः अनन्ति अनिषि अनिथः अनिथ अनिमि अनिवः अनिमः
समीचीनं जागर्ति
जागर्ति जागृतः जागृति जागृषि जागृतः जागृत जाग्रामि जागृवः जागृमः
समीचीनं
भगिनि ऐ हाव् अ क्वश्चन् वित् जागृति भगिनि अनिति हेस् अनन्ति स्वपिति आल्सो हेस् स्वपन्ति लैक् दट् वै Jagrati doesn't have the na sound in Bahuvachana.
It has that rakaram, right, Bhagini? So the rakaram will change the form at the end.
Oh. Okay. Because of the ir sound, you have only Jagrati. Okay.
Asso. Ivanim Johotyavi Kanaha. लक्षणमस्ति द्वित्वं ददाति प्रिया भगिनी
ददाति दत्तः ददति ददाति दत्तः दत्तः ददामि दद्वः दद्मः
Bhagini, what's the difference in the meaning of dadati and dadhati? The second one, Bhagini.
Oh.
Dadhati, dattaha, dadati, dadhasi, dattaha, dattha, dadhami, dadvaha, dadmaha.
ददा एकनिमिषं ददाति नाम टु गिव् अस्तु ददाति नाम टु ओबे अथवा टु सपोर्ट् इति अस्तु
आं भगिनि
जहाति दादा भगिनी भवती पठतु
जहाति हा धातु जहाति जहितः जहति जहासि जहितः जहित जहामि जहिवः जहिमः
bibheti
bibheti bibhitaha bibyati bibeshi bibithaha bibita or different ta bagni that bibitha bibemi bibivaha bibimaha
samichana. अस्तु इदानीं प्रश्नाः सन्ति वा?
नास्ति भगिनि.
अस्तु इदानीम् एतत् कुर्मः. भन्दते राधा भगिनी.
बन्द् प्लस् अ प्लस् ते भवादि भवादिगणः भुवादिगणः बन्दते भन्देते बन्दन्ते बन्दसे भन्दे ते भन्दद्वे भन्दे बन्दामहे बन्दामहे. करेक्ट् भगिनि?
आम् अस्तु. प्रिया भगिनी बाधते
बा इद् योगः अयोगः भुवादिगणः भगिनि
भुवादिगणः
बाधते बाधेथे बाधन्ते बाधते बाधते बाधद्वे बाधे बाधावके बाधामके.
समीचीनं. दादा भगिनी दधाति.
दधाति is the last one. Juhyodadiganah dittam asti. Dadati dadati dattah dadati dadasi dat दत्तः दत्त ददामि दत्वः दद्मः. करेक्ट् भगिनि?
वन्दते
वन्दते भुवादिगणः भगिनि. वन्दते वन्दते वन्देते वन्दन्ते वन्दसे वन्दे सोरि वन्दसे वन्दते वन्दद्वे वन्दे वन्दावहे वन्दामहे.
समीचीनम्. रोदिति राधा भगिनी.
रुद् इति रुद् ददातु. रुद् प्लस् रुद् रोदिति रुद् प्लस् हौ डु ऐ डु स्प्लिट् इट् भगिनि? रुद् प्लस् रुद् प्लस् ति. So no vikarana pratyaya in between. And there is no dvitvam. So it is adadi ganah. So roditi ruditaha rudanti rodisi ruditaha rudita rodami ro रोदामि rodavah rodamah.
I just gave it a try. I don't know if it's right.
Samyak eva krutvati.
Oh, thank you.
Nati, Priya Bhagini.
Is this Bhuvani Bhagini? I'm not sure. I feel like we read it in Azadi.
It's Azadi.
Azadi. Azadi. Why is it Azadi Bhagini? No.
Na yoga.
Na and nothing in between and the.
Is it not in yoga, Bhagini? How do you split that, Bhagini? If yoga, in yoga, like that, you won't split it, Bhagini.
Kim Bhagini?
The na or asana.
That was my confusion earlier. You have to take the root word.
I have to take the root. This is the root word, and then you have the.
Oh, okay, okay. Sorry, sorry.
I made the same mistake earlier.
Okay. So, Snati. Snati, Snataha, Snananti. Snati, Snataha, Snat. I'm doing the Parasmai Padipon, Bhagini. Don't know if it's right.
वदतु
ओके स्नाति स्नातः स्नानन्ति स्नाति
स्नान्तः स्नाति स्नान्तः स्नान्ति
स्नान्तः स्नान्ति ओके स्नाति स्नातः स्नातः स्नामि स्नावः स्नामः
आं समीचीनम् Jagarti, Radha Bhagini.
Jagarti, oh my god, this is another sound. Jagarti, it's Radhikanaha. Jagarti, Jagartaha. It doesn't have the in sound. Jagar. Jagarti Jagartaha Jananti. So Jagati.
Mm-hmm.
Is it Jagati Bhagini? The Bhavachanam form? Okay. Jagasi Jagataha Jaga. Jagami Jagavaha Jagamaha. I'm not sure Bhagini if I'm right.
Again, Shaha. पुनः एकवारं वदतु भगिनी
जागर्ति इस् जागर्ति जागतः जागन्
जागृतः जागरन् जागृति
जागृति जागृतः
न जागर्ति
जागृति जागृतः जागृत जागृसी जागृसी जागृत जागृत जागर्षि ओके जागर्ति जागृतः जागृति जागर्षि जागृतः जागृत Jagrami, Jagravah, Jagramah. Okay. The she went wrong. I said C. The two things to watch out here is the last one doesn't have the na sound, and this one doesn't have the usual sa, it is sha. Cha or shi. Got it, Bhagini.
Yes. Priya Bhagini, drati.
Drama. See. Is it Adadi Gana Bhagini?
Huh?
Is it Adadi Gana Bhagini? Okay. And it takes the form of Snati Bhagini? Like... Is it similar
it
to Snati?
It will take the form of Jagrati. Similar to Jagrati.
Oh, okay. Drati Jagrati Jagrutaha. So Drataha, I'm not sure. Dratrutaha. Drati Dratrutaha Drati Drashi Dratrutaha Dratrutaha.
Drami
Dratruvaha Dratrumaha
Dramaha.
Okay, Drami Dratruvaha. Okay, so there is Jagrataha because of the requirement. Okay, Bhagini. So I'll repeat, Bhagini. Drati Drataha Drati Drashi Drataha Drata Drami Dravaha Dramaha.
Samichinam. Asto.
Bhagini, can you please show the what you had written on the board once, Drati?
Snati form. It follows the...
Similar form. To Snati, okay. Yeah. Inti comes over there, is it?
Yes.
Oh. Sorry, Priya Bhagini, I gave you the wrong this thing.
Oh, no, Bhagini, no problem. Problem at all.
Oh my god, this is quite difficult to remember.
Yeah, very confusing.
Yeah.
Edhate. Radha Bhagini?
Edhate. Edhate. Bhadiganaha. Edate, edete, edante, edase, edase, edate, edadve, edhe, edavahe, edamahe.
Shete.
This is Bhuvadikana, Bhagini, Atmanepadi. Or
Adadi.
Adadi. Shete.
Shete Shayate, I remember. I made a mistake.
Right, Bhagini. Shete. I'm going to look at the forms and say, Bhagini.
आम् आम् आम्
शेते शयाते शेरते शेषे शयाथे शेद्वे शेये शेवसे शेमसे
समीचीनम् अस्तु अनन्तरं
Is there, sorry Bhagini, one question. Is there a way to identify the root word from the word Bhagini, or is that also memorization? Bhagini?
Just knowing it or memorization.
Okay, okay Bhagini.
Vand Dhatu, Bhagini Vand Ate, Bhavadikanaha, Vandate, Vandete, Vandante, वन्दसे वन्दते वन्दद्वे वन्दे वन्दामहे वन्दामहे
प्रिया भगिनि लाति
लाति अदादि भगिनि
आम्
सो लैक् स्नाति स्लाति लातः लान्ति स्लासि लाथः लाथ लामि लावः लामः इदर् रैट् भगिनि
आम् समीचीनम् अस्तु अनन्तरं जीवति राधा भगिनी
जीव् सो भुवादिगणः जीवति जीवतः जीवन्ति जीवसि जीवतः जीवत जीवामि जीवावः जीवामः
समीचीनम् खादति क्या भगिनि
खादति भुवादिगणः खादति खादतः खादन्ति खादति खादतः खादतः खादामि खादावः खादामः
समीचीनम् दधाति राधा भगिनी
दधाति इस् जुह्यो जुह्योदादिगणः द्वित्वमस्ति दधातु ददाति दत्तः ददति दधासि दत्तः दत्त ददामि दद्वः दद्मः
समीचीनं नमस्कारः गोपाल् महोदय
औट्सैड् भगिनि जायिन् इन् टु मिनिट्स्
अस्तु अस्तु महोदय प्रिया भगिनी पाठते
भुवादिगणः भगिनि
आम्
बाधते बाधेते बाधन्ते बाधते बाधेते बाधद्वे बाध बाधे बाधावहे बाधामहे
समीचीनं राधा भगिनी अनिति
अनिति Ani, what is the pratipadikam, Bhagini?
Pratipadikam? Athava dhatu.
Sorry, what is the dhatu? Is it ani or ni?
An, an iti dhatu.
An. Oh, okay. So it is adadi ganaha.
No, an yogahati.
An yogahati. So adadi ganaha, right? Like snati. Aniti. Aniti, anitaha, aninti, anisi, anitaha, anita, animi, aniva, anima.
Bhagini? What happens to the e, Bhagini? So, an yoga has t, but there's an E, right, Bhagini, there, Aniti. So, that is not considered as a Vikarna?
No, Bhagini.
So, what becomes to that, Bhagini? What happens to
it? Because of Sandhi, it becomes, there is an addition, E.
Sorry, say that again, Bhagini?
Because of when we form the Kriyapadam, we do something to the dhatu to form the Kriyapadam, Bhagini. So when we do that, you get that extra addition E. So you get Aniti.
Oh, so what is that called, Bhagini? What you do to the dhatu? Mm-hmm. Like, is there a...
I don't know that much about that, Bhagini.
Okay, no problem, Bhagini. Okay, so it's not just that whatever is left over makes a Vikarna Pratyaya. Okay, Bhagini. Okay.
Bhagini, did I say it correctly?
Yes, Bhagini.
Okay.
Snati Kratavanta. Bhavati, Priya Bhagini.
Bhuvati Kanaha, Bhavati, Bhavataha, Bhavanti, Bhavasi, Bhavataha, Bhavataha, Bhavani, Bhavavaha, Bhavamaha.
Samichana. Dadati Kratavanta. Kridati.
Kreed, dhatu, kreed, ati, so it is bhuvadiganaha. Kridati, kreedataha, kreedanti, kreedasi, kreedataha, kreedata, kreedami, kreedava, kreedamaha.
Samichinam. Vakti.
So this is, doesn't have a Vikarna Pratyaya, Bhagini. It's the root word Vak. Okay, so Adadi Ganaha. Does it take the form of Snati, Bhagini?
This is kind of complicated one.
Vachno, Bhagini. The root word will be
Vach.
Vach, I think.
Didn't Priya Bhagini say
Vach? Okay. I said Vach. I said Vach only, Bhagini. I didn't say it correctly.
Okay. Yes, root word is Vach.
Vach, okay. vachyopasati.
That's where the last one gets vachanti.
Vakti vaktaha vachanti. Vakshi vaktaha vaktaha. Vachmi vachvaha vachmaha.
Okay, to remember. The chya has to be there.
The chya has to be there. So vach, we have to remember the root word vach. Okay.
अस्तु शोचति राधा भगिनी
शोचति शुच् धातु भगिनी शुच्
आम्
सो इट् इस् शुच् प्लस् अ प्लस् दि इट् इस् भुवादिगणः शोचति शोचतः शोचन्ति शोचसि शोचतः शोचत शोचामि शोचावः शोचामः
प्रेसेण्ट् एक स्पेशल् फार्म् इस् भगिनि शोचति ऐ एम् आल्वेस् थॉट् इट् इस् लैक् शुचितः समथिङ्ग् लैक् दट् नो भगिनि
नो भगिनि
ओके ओके
भगिनि शोचति शोचतः शोचन्ति शोचसि शोचतः शोचत शोचामि शोचावः शोचामः
ओके ओके भगिनि थेङ्क् यू
अस्तु आस्ते प्रिया भगिनी
स्पेशल् फार्म् आस्ते आसाते दिस् इस् अदादिगणः रैट् भगिनि आस्ते आसाते आसते I'm going to look and read Bhagini, I don't have the form. Aaste, Aasate, Aasadve.
Aadve.
Aadve, okay, Aadve. Aase, Aasvake, Aasmake.
राधा भगिनी
नादते नाद् नो नथिङ्ग् इन् बिट्वीन् स्वादादिगणः नादते नादेते नाद् नादन्ते नादसे नादते नादध्वे नादे नादामहे नादावहे नादामहे नाट् शो भगिनि
आम् आम् सम्यक् एव उक्तवती प्रिया भगिनि निन्दति
निन्दति निन्दतः निन्दन्ति निन्दसि निन्दतः निन्दतः निन्दामि निन्दावः निन्दामः रैट् भगिनि भुवादिगणः
भुवादिगणः Santi. This one will be kind of weird. Radha Bhagini.
No, it's so difficult, Bhagini. Boy, you know, Aradhi Gana, Hanti, Hanti, Hantaha, Gnanti, something like that it comes. Hanti, Hantaha, Gnanti, I don't know the second, Matima Purushaha, Bhagini. Bhagini, can I see it once?
Oh.
Hanti Hataha. Okay. Hanti Hataha Gnanti Hansi Hataha Hata Hanmi Hanvaha Hanmaha. Okay. Hanti Hataha Gnanti Hansi Hataha Hata Hanmi Hanvaha Hanmaha.
अस्तु वदति प्रिया भगिनी
वदति भुवादिगणः वदति वदतः वदन्ति वदसि वदथः वदथ वदामि वदावः वदामः
अस्ति एतदपि किञ्चित् हिवि कैण्ड् आफ् वर्ड्
This also I don't know Bhagini Hati. I have to see Bhagini. Atti.
Attaha Adanti.
Atsi Attaha Atta. Admi Advaha Admaha. Atti Attaha Adanti. Atsi Attaha Atta. Admi Advaha Admaha.
That three Gana speciality ones, if you can revise, Bhagini. Bhuvadi Ganaha Avikarana Pratyaya Asti. Adadi Ganaha Lopaha Bhavati. द्वित्व भवति वा
जुहोत्यादिगणस्य जुहोत्यादिगणस्य द्वित्वम्
अच्छा जुहोत्यादिगणस्य द्वित्वं भवति जुहोत्यादिगणः कः धातुः वाट् इस् द धातु फर् थर्ड् गण जुहोत्यादिगण
जुहोति
जुहोति But I don't think we did, I think we did, but I don't think I wrote any third gana letters. Snati api adadi gana asti. Snati, shrati, drati. ओके ओन्ली लोपः भवति ओके ऐ थिङ्क् वै नीड् सम् एक्साम्पल्स् फ्रम् जुहोत्यादिगण वन् अण्ड् टु आर् ओके
अतः ददाति किञ्चित् अभ्यासं वयं कृतवन्तः ददाति अस्तु स्पर्धते प्रिया भगिनी
पद्धते भुवादिगणः आत्मनेपदे पदि स्पर्धते स्पर्धेते स्पर्धन्ते स्पर्धसे स्पर्धते स्पर्धद्वे स्पर्धे स्पर्धावहे स्पर्धामहे.
समीचीनम्. वदति राधा भगिनी. राधा भगिनी
सारी ऐ वाज़ ऑन म्यूट. वदति इट इस अदादिगणः बद्धातु वदति वदतः वदन्ति वदसि वदतः वदत वदामि वदावः वदामः.
भुवादिगणः किं नास्ति? बद् योगः आ योगः ति आ विकरणप्रत्यय नास्ति वा?
बद् योगः आ योगः ति
तु भुवादिगणः न अदादिगणः कः?
भुवादि भगिनि
भुवादि.
ओके ऐ मेड् अ मिस्टेक् सारी महोदय.
आविकरणप्रत्यय भवति खलु?
आम् आम् सत्यम्.
बाधते गोपाल् महोदय.
गाधते गाध योगः आयोगः ते आविकरणप्रत्यय भवति. दिस् इस् भुवादिगणः. गाधते गाधेते गाधन्ते गाधसे गाधेथे गाधद्वे गाधे गाधावहे गाधामहे.
समीचीनम्.
भुवादिगणः आत्मनेपदी गाद् टु प्रेस्.
रोदिति प्रिया भगिनि.
रोदिति भुवादिगणः भगिनि रुद्धधातुः. There's a Bhuvadi or Adadi Bhagini, I'm not sure.
Adadi Ganaha.
Adadi Ganaha, okay. Roditi, Ruditaha, Rudhansi, Rodishi, Ruditaha, Ruditha, Rodimi,
समीचीनं. मन्थति राधा भगिनी.
मन्थति मन्थ ऐ थिङ्क् इट् इस् भुवादिगणः. मन्थति मन्थतः मन्थन्ति मन्थसि मन्थतः मन्थ मन्थामि मन्थावः मन्थामः. करेक्ट् भगिनि?
आम्. जीवति गोपाल् महोदय.
जीवति जीव धातु भुवादिगणः. जीवति जीवतः जीवन्ति जीवसि जीवतः जीवथ जीवामि जीवावः जीवामः. आविकरणप्रत्यय भवति. दट् इस् वै इट् इस् तदर् that is why means what you will say tadartham तत् कारणात् तदर्थं भुवादिगणः भवति.
समीचीनं. प्रिया भगिनी गर्जति.
गर्जति भुवादिगणः भगिनि. गर्ज योगः अयोगः इति गर्जति गर्जतः गर्जन्ति. गर्जसि गर्जतः गर्जतः. गर्जामि गर्जावः गर्जामः.
समीचीनं. अनितिं राधा भगिनी.
सर् शोभा भगिनी अनिति. I did earlier also Aniti.
Pati.
Pati. Pati. Hippa plus A. So, this Bhuvadi Ganaha?
No. No. Adadi. A Yoga Hati.
योगः अति ओके. पाति पाति पातः पाति पातः पान् पान्ति पाति पातः पात पामि पामः पामः. I'm not sure भगिनि. I think one thing is different.
अस्ति. गोपाल् महोदय.
अस्ति अस्ति इस् अदादिगणः. अस्ति अस्ति सत्त्वः अदन्ति. अस्ति इस् अस्ति स्तः सन्ति. असि स्थः स्थ. अस्मि स्वः स्मः.
समीचीनं. प्रिया भगिनी द्राति.
द्राति अदादिगणः. द्राति द्रापः द्रान्ति. द्राति द्रापः द्रापः. द्रामि द्रावः द्रामः.
दादा भगिनी भादते कृतवन्तः. दधाति
भगिनी. जुह्योदादि.
ऐ थिङ्क् वि डिड् एव्रिथिङ्ग्.
हा भगिनी.
प्रश्नाः सन्ति वा?
नो भगिनी. नेक्स्ट् वीक् वि विल् हाव् टु लुक् एट् इट् अण्ड् कम्
ऐ थिङ्क् केन् वि रिपीट् इट् अगेन् भगिनी.
You want to go through the whole thing again?
No, I mean like after a week or two.
Yeah, next week once again we'll have to do the exercise.
We'll go through the whole thing again.
Yes, again. I think with repetition maybe it will get a little bit easier.
No problem. So, do you want to do the next kanaha or do you just want to do these three kanas for this week?
No, we'll do one new one, Bhagini.
Okay.
We can add that to our practice next week then.
So, next one is Divadihi. Priya Bhagini, can you read?
Bhagini. Divadihi. Chatusaha Ganaha. Div Ityadaha Dasavaha. Divyadhi Ityadini Kriyapadani. Vikarna Pratyaha Shayan Ya. Ada Udaharanam Namash. Nashyati, Nityati, Kupyati, Kupyati, Kushyati, Man, Manyate, Vidyate. Yeah, so Vikarna Pratyaha is Vya.
Yeah. So this might be easier because Vya is there. So Nashyati, Nityati, Kupyati, Krudhyati, Tushyati, is Parasmaipadi, and then Atmaipadi, Vidhyate.
So this is called Divadihi Ganaha, Bhagini.
Divadi Ganaha, iti vayam vadama.
Oh, that colon is not
Either we say Divadihi or we say Divadi Ganaha.
Oh, okay, Vadhi. Divadihi or Divadi Ganaha, okay.
Like, just like we say Juhurtyadi Ganaha, Radadi Ganaha, Bhadi Ganaha.
Okay, Vadhi. Divadi. So starts with the first word here is Divyati. So it's called Divadihi. Okay, Bhagini.
Div Dhatu Artham Kim Bhagini?
Kim Mahodaya?
Divine.
Div Dhatu.
Tatra
the divine Bhagini? Divyati.
Divine na to shine atva to glow iti. Deepaha something like deepa, like how
Deepaha Divyati.
Like that. अस्तु किञ्चित् ओके एकवारम् एतानि रूपाणि वदन्तु नश्यति इत्यस्य रूपाणि किम्
अहं वदामि भगिनि
आम्
नश्यति नश्यतः नश्यन्ति नश्यति नश्यतः नश्य नश्यामि नश्यावः नश्यामः
समीचीनम् प्रिया भगिनी नृत्यति
नृत्यति नृत्यतः नृत्यन्ति नृत्यसि नृत्यथः नृत्यथ नृत्यामि नृत्यावः नृत्यामः
समीचीनं कुप्यति कोपाल महोदय
कुप्यति कुप्यति कुप्यतः कुप्यन्ति Where are the forms, Bhagini, for Divadi Ganaha?
This is
no,
like
we have to tell it, Mahodaya.
This is like Bhuvadi Ganaha.
Like Bhuvadi Ganaha only. Oh, okay. Then it is straightforward. No, Kupyati, Kupyataha, Kupyanti, Kupyasi, Kupyataha, Kupyatha, Kupyami, Kupyavaha, Kupyamaha. Then now, what is the speciality of the Divadi Ganaha? How to identify?
Yeah.
Yeah, Vikarana Pratyaya Asti. Okay. Vikarana Pratyaya Shyan. Yes. Okay. Oh, okay. So, Bhuvadi Ganaha is like foundation. Or second also, that Snati, it is also like Bhuvadi Ganaha only.
अस्तु तुष्यति
द्विवादि अपि ऐसै
तुष्यति इत्यस्य प्रिया भगिनी
तुष्यति तुष्यतः तुष्यन्ति तुष्यति तुष्यतः तुष्यतः तुष्यामि तुष्यावः तुष्यामः
मन्यते
मन्यते मन्येते मन्यन्ते मन्यसे मन्येते मन्यद्वे मन्ये मन्यावहे मन्यामहे विद्यते
अस्तु विद्यते विद्यते इत्यस्य रूपाणि गोपाल् महोदय भवान् वदतु
विद्यते विद्येते विद्यन्ते विद्यसे विद्येते विद्यद्वे विद्ये विद्यावहे विद्यामहे
अस्तु अहं क्रियापदानि ददामि सीव्यति प्रिया भगिनी
can you repeat the क्रियापदानि भगिनी I didn't hear it clearly
सीव्यति
दीव्यति
अहं लिखामि एकनिमिषम्
टु शैन् इस् वाट् यु सेड्
दीव्यति सीव्यति सीव्यति सीव्यतः सीव्यन्ति सीव्यसि सीव्यथः सीव्यथ सीव्यामि सीव्यावः सीव्यामः
समीचीनं
तु स्टिच् सीव्यति भगिनि सोयिङ्ग् रैट्
आम् अस्तु अनन्तरं इत्यति कृतवन्तः अस्तु कुत्यति कुत्यति
कुत्यति कुत्यतः कुत्यन्ति कुत्यसि कुत्यतः कुत्यत कुत्यामि कुत्यावः कुत्यामः अर्थ किं भगिनि तस्य अर्थं किम्
ओ कुत्यति इत्यस्ति टु हेव् बेड् स्मेल् इति अनन्तरं
इन् हिन्दी विषये बद्बू
अस्ति अपि गोपाल महोदय
उत्यति उत्यति उत्यतः उत्यन्ति उत्यसि उत्यथः उत्यथ उत्यामि उत्यावः उत्यामः
समीचीनम् अस्तु अद्य अत्र स्थगयामः कस् ऐ डोण्ट् वाण्ट् टु कन्फ्यूस् दिस् गणः वित् दि अदर् गणास्
थर्ड् गण सम् एक्साम्पल् शिशो भगिनि द जुहोत्यादि गण
अस्तु ऐ विल् शो अस्तु so please practice the forms for the first four ganas and we will meet next week
astu bagini dhanyavadah punar milamah
dhanyavadah bagini punar milamah
punar milamah
punar milamah ram ram
namaskar